एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। शुक्रवासरस्य रात्रितः नैरन्तरीण जायमानया वृष्ट्या सहैव दुरापन्नासु जलविप्लव भूस्खलन जलमग्नतासु निपत्य पञ्चदश जनाः मृताः सन्ति। जलविप्लव भूस्खलन प्रवृत्ति विपज्जन्य घटनासु निपत्य अन्ये त्रयो जनाः विलुप्ताः वर्तन्ते। अष्टादश जनाः आताश्च सन्तीति केन्द्रीय प्रहरी प्रवक्ता प्रहरी नायब महानिरीक्षकः दानबहादुर कार्की ज्ञापयति। प्रहरी प्रवक्तुः कार्किणः अनुसारेण जलविप्लव भूस्खलन विपज्जन्य घटनासु पूरणात् काष्ठमण्डपे एकः, स्याङ्जा जनपदे त्रयः, पर्वत जनपदे द्वौ, उदयपुरे एकः, काभ्रेपलाञ्चोक जनपदे द्वौ, पाल्पा जनपदे एक, तनहु जनपदे त्रयः, दाङ डडेलधुरा जनपदयोः प्रति जनपदम् एकश्चेति कृत्वा आराष्टम् पञ्चदश जनाः मृताः सन्ति। एवमेव तनहु जनपदे पञ्च, गुल्मी जनपदे एक, ओखलडुंगा जनपदे द्वौ, काष्ठमण्डपे त्रय, चितवन जनपदे एक, स्याङ्जा जनपदे षड् चेति आहत्य अष्टादश जनाः आताः सन्तीति प्रहरी प्रधान कार्यालयेन ज्ञापितम् वर्तते। अविरल वृष्टेः कारणेन ह्योऽपि आराष्टम् जनजीवनम् प्रभावितमस्ति। कौशिकी नारायणी प्रवृत्तिषु नदीषु जलस्तर वर्धितोस्तीति प्रहरिणा ज्ञापितम् वर्तते। काष्ठमण्डपोपत्यकायाः नदी खोलिका तटीय क्षेत्रेषु ह्योऽपि प्रहरिणा निरीक्षणम् अनुगमनम् च विहिते स्तः। अविरलवृष्टेः कारणेन उपत्यकायाः नदीषु जलस्य स्तरस्य वर्धनात् सम्भावितम् संकटम् ध्यात्वा तटीय क्षेत्राणाम् निरीक्षणम् गमनम् च प्रहरिणा विद्यमानमस्तीति केन्द्रीय प्रहरी प्रवक्ता कार्की असूचयत्। देशस्य पूर्वभूभागीय पर्वतीय क्षेत्रे नैरन्तर्यस्य वृष्टेः कारणेन सप्तकौशिकी नद्याम् जलस्तरः वर्धितोऽस्ति। जलस्तरस्य वर्धनम् दृष्टिगतम् विधाय स्थानीय प्रशासनेन कौशिकी नद्याः तटबन्धनस्य 650 द्वाराणि उद्घाटितानि सन्ति। सुनसरी प्रमुख जनपदाधिकारिणः रामचन्द्र तिवारी इत्यस्य अनुसारेण तटबन्धने प्रतिघण्टम् 168,000 अधिकस्य क्यूसेक परिमितस्य जलप्रवाहस्य पश्चात् सर्वाणि द्वाराणि उद्घाटितानि वर्तन्ते। नद्याः जलस्तरस्य नैरन्तर्येण अनुगमनम् विद्यमानमस्ति। जलस्तरस्य नैरन्तर्येण वर्धनात् कौशिकी नद्याः तटबन्धनक्षेत्रे संकटस्य सूचकः दीपकः प्रज्वालितो वर्तते, रक्तध्वजश्च स्थापितोऽस्ति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः जलविप्लवैः प्रभावितायाः जनतायाः जीवनधनस्य रक्षायै राज्यस्य सम्पूर्ण शक्तिम् परिचालयितुम् सम्बद्ध सर्वान् निकायान् निर्दिशति। सिंहप्रासादस्थितात् नियमनकक्षात् जलविप्लवैः विहितायाः क्षतिर्विषये सूचना ग्रहणस्य पश्चात् प्रधानमन्त्रिणा प्रचण्डेन सक्रियेण कार्यम् कर्तुम् बलम् प्रादात्। सम्भावितम् संकटम् प्रति सुरक्षा सावधानताम् अवलम्बितुम् सम्पूर्ण नागरिकान् अनुरुन्धानः प्रधानमन्त्री प्रचण्डः सर्वकारस्य प्रयासे सार्थक सहयोगाय सम्पूर्ण राजनैतिक दलानि नागरिक समाजम् सामाजिक संघ संस्थाश्च अन्वरुणत्। प्राकृतिक विपदा कारणेन प्रभावितानाम् नागरिकाणाम् उद्धार सहयोग कार्येषु सक्रियाः भवितुम् सर्वकारस्य सर्वे निकायाः निर्दिष्टाश्च सन्ति। जलविप्लव भूस्खलनानाम् कारणेन देशस्य विभिन्न भूभागेषु जाताम् धनजनयोः क्षतिम् प्रति दुःखम् अभिव्यज्य प्रधानमन्त्री प्रचण्डः विपदा प्रभावितानाम् नागरिकाणाम् उद्धार सहयोगयोः कार्ये सहयोक्तुम् अन्वरुणत्। नेपाल यातायात व्यवसायी राष्ट्रिय महासंघेन जलविप्लव भूस्खलनैः प्रभावित राजमार्गान् तत्कालम् सञ्चालयितुम् सर्वकारः अभियाचितोऽस्ति। महासंघस्य महासचिवः डेकराज गौतमः यः विज्ञप्तिम् प्रकाश्य अविरलवृष्टेः कारणेन दुरापन्नैः जलविप्लव भूस्खलनैः राष्ट्रिय राजमार्गेषु, सहायक मार्गेषु, ग्रामीण मार्गेषु च क्षतिः प्राप्तास्तीत्यतः तत्कालम् सम्भारादि कार्यम कृत्वा वैकल्पिकीं व्यवस्थां विधाय वा मार्गान् सञ्चालयितुं सर्वकारः अभियाचितो वर्तते। महासंघेन आराष्ट्रम् यत्र कुत्रापि यात्रायाः समये स्वस्य गन्तव्यस्थानं यावत् मार्गस्य अवस्थां पूर्णतः ज्ञात्वैव यात्रां प्रारब्धुं यातायात साधनानि सञ्चालयितुं च सर्वे आहूताः वर्तन्ते। नेकपा एमाले दलस्य संसदीय दलस्य उपवेशेन पदात्यागपत्रम् दत्ता मार्गम् प्रशस्तम् विधातुम् प्रधानमन्त्री प्रचण्डः पुनः अनुरुद्धो वर्तते। प्रधानमन्त्रिणा तत्कालम् त्यागपत्रम् प्रदाय राष्ट्रिय सहमतेः सर्वकारस्य निर्माणाय सहयोगस्य अभावे एमाले दलेन विश्वासस्य मतस्य विपक्षे मतदानम् कर्तुम् निर्णीतम् अस्ति इति एमाले दलस्य सचेतक पदीया सुनिता बराल असूचयत। उपवेशे अल्पमते विद्यमानेन प्रचण्ड नेतृत्वस्य सर्वकारेण विभिन्नाः राजनैतिक नियुक्तयः निर्णयाश्च विद्यमानाः सन्ति इति उक्त्वा तत्कालं प्रधानमन्त्रिणा त्यागपत्रम् देयमिति निष्कर्षः प्रकाशितोऽस्ति। उपवेशे अध्यक्षा केपी शर्मा ओली राजनीतिक स्थायित्वस्य आधार निर्माणस्य विषय देशस्य जनताया सपक्षे वर्तते इति विचारं व्यक्तवान्। अत्रान्तरे नेकपा एमाले दलेन सचिवालय उपवेशः आहूतो वर्तते। श्व आषाढस्य पञ्चविंशे दिवसे दिवा एकवादने उपवेशः आहूतोऽस्ति इति एमाले दलस्य प्रचार विभागस्य प्रमुख राजेन्द्र गौतमः अज्ञापयत्। प्रतिनिधिसभाया ह्यस्तनोपवेशे अधिकार दुरूपयोगानुसन्धानायोगस्य त्रयस्त्रिंशम् गतार्थिक वर्षस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य पक्षतः श्रमवृत्ति सामाजिक सुरक्षा मन्त्री डोलप्रसाद अरियालः प्रतिवेदनमेतत् प्रास्तोत। उपवेशे सभामुखः देवराज घिमिरे प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन विश्वासस्य मतस्य ग्रहणस्य प्रयोजनाय अस्यैव आषाढस्य अष्टाविंशः दिवसः समयः निर्धारितोऽस्ति इति उपवेशम् अज्ञापयत्। तत्पूर्वं सांसदाः वर्षाणां कारणेन देशस्य विभिन्नेषु भागेषु भूस्खलनस्य जलविप्लवस्य च कारणेन जातायाः क्षतिर्विषये सर्वकारस्य ध्यानम् आकृष्य उद्धारकार्यं प्राथमिकतायं संस्थाप्य सहयोगाय क्षतिपूर्तये च ध्यानं दातुम् अन्वरुणन्। प्रतिनिधिसभायाः अपरोपवेश अद्य प्रातः 11 वादने वसति। राष्ट्रिय सभाया ह्यस्तनोपवेशेन प्रतिनिधिसभातः ससन्देशं प्राप्तं निवेश सहजीकरण सम्बद्धान् कतिपयान् नेपालादि नियमान् संशोधयितुं निर्मितं एतद् विक्रमवर्षीयं विधेयकं पारितीकृतं वर्तते। उपवेशे प्रधानमन्त्रिणा उद्योग वाणिज्य आपूर्ति मन्त्रिणश्च पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्री रेखा शर्मा प्रतिनिधिसभातः ससन्देशं प्राप्तं निवेश सहजीकरण सम्बद्धान् विधेयकमेतत् पारितीक्रियतामिति प्रस्तावः प्रस्तुतः आसीत् इति समाचाराः।